अथ हस्तामलकीयं भाष्यम् ओम निमित्तं मनश्चक्षुरादि प्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः रविर्लोकचेष्टा निमित्तं यथाय सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा यमग्न्यूष्ण्यवन्नित्यबोधस्वरूपम् मनश्चक्षुरादीन्यबोधात्मकानि प्रवर्तन्त आश्रित्य निष्कम्पमेकम् सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा मुखाभासको दर्पणे दृश्यमानः मुखत्वात् पृथक्त्वेन नैवास्ति वस्तु चिदाभासको धीषु जीवोऽपि तद्वत् सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् तथा धीवियोगे निराभासको यः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा मनश्चक्षुरादेर्वियुक्तः स्वयं यः मनश्चक्षुरादेर्मनश्चक्षुरादिः मनश्चक्षुरादेर्गम्यस्वरूपः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु शरावोदकस्थो यथा भानुरेकः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा यथानेकचक्षुः प्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् अनेकाधियो यस्तथैकप्रबोधः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा विवस्वत्प्रभातम् यथारूपमक्षम् प्रगृह्णाति नाभातमेवम् विवस्वान् यदाभात आभासयत्यक्षमेकः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा यथा सूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्वग्विभाव्यस्वरूपः चलासु प्रभिन्नासु धीष्वेवमेकः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा घनच्छन्नदृष्टिर्घनच्छन्नमर्कम् यथा निष्प्रभम् मन्यते चातिमूढः तथा बद्धवद्भाति यो मूढदृष्टेः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा समस्तेषु वस्तुस्वनुस्यूतमेकम् समस्तानि वस्तूनि यम् न स्पृशन्ति वियद्वत्सदा शुद्धमच्छस्वरूपः सनित्योपलब्धिस्वरूपोऽहमात्मा सनित्योपलब्धिस्वरूपोऽहमात्मा उपाधौ यथा भेदता सन्मनीनाम् तथा भेदता बुद्धिभेदेषु तेऽपि यथा चन्द्रिकाणाम् जले चञ्चलत्वम् तथा चञ्चलत्वम् तवापीह विष्णो ॐ ॐमिति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविंद भगवत पूज्यपाद शिष्य श्रीमत् शंकर भगवतः कृतौ हस्तामलकीय भाष्यम् संपूर्णम् ओम।